ॐ सर्वेभ्यो नमः, स्वागतं. प्रथमतया वयं प्रार्थनां वदामः. लक्ष्मी भगिनी,
ॐ सहनावतु, सहनस्तु, सह वीर्यं करवहै तेजस्विनामधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्तिः. ॐ सहनावतु, सहनौघ्नस्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. शान्ति शान्ति. ॐ सहनावतु, सहनौघ्नस्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः.
धन्यवादः भगिनी. अस्तु, प्रथमतया वयं किञ्चित् गतवर्गे वयं किं कृतवन्तः तस्य विषये किञ्चित् क्रियापदस्य अभ्यासं कृत्वा वयं लोट्लकारस्य विषये अपि गृहपाठस्य विषये पश्यामः. अस्तु, प्रथमतया चित्रा भगिनी, भवत्याः क्रियापदं कम्पते.
कम्पते, कम्पेते, कम्पन्ते, कम्पसे, कम्पेथे, कम्पध्वे, कम्पे, कम्पावहे, कम्पामहे.
समीचीनम्. अस्तु, अनन्तरं अस्तु चिनोति. रूपाणि भिन्नाः भवन्ति. प्रिया भगिनी, भवती प्रयत्नं करोति वा? अस्तु, लक्ष्मी
सारी भगिनि.
अस्तु, वदतु भगिनि.
चिनोति, चिनुतः, चिनन्ति,
चिन्वन्ति,
चिन्वन्ति, चिनासि, चिनीतः, चिनीत, चिनामि, चिनीवः, चिनामः, चिनीमः. Is that correct, Bhagini?
Chinoti, Chinutaha, Chinvanti, Chinoshi, Chinutaha, Chinutaha.
Oh, I got it all wrong.
Chinomi, Chinvaha, Atava Chinuvaha, Chinumaha.
Chinumaha, okay.
Asu, Anantaram. लक्ष्मी भगिनी, भवत्याः क्रियापदमस्ति भवति.
भवतः, भवन्ति, भवसि, भवतः, भवत, भवामि, भवावः, भवामः.
समीचीनम्. अस्तु, अनन्तरं समीचीनं भगिनि. इदानीं नागेन्द्र महोदय. नागेन्द्र महोदय, न श्रूयते महोदय. अस्तु, चित्रा
भगिनी,
इदानीं
आह्यति. इस् इट् सेम् रेगुलर् वन् आर् इट्स् स्पेशल् वन्? देर् इस् नो एक्स्क्लमेशन् भगिनि. सो आह्यति,
आह्वयति,
आह्वयति, आह्यति, तः आह्वयन्ति आह्वयसि आह्वयतः आह्वयतः आह्वयामि आह्वयावः आह्वयामः
समीचीनम् आह्वयति आह्वयतः आह्वयन्ति आह्वयसि आह्वयतः आह्वयत आह्वयामि आह्वयावः आह्वयामः अस्तु इदानीं चित्रा भगिनी भवत्याः क्रियापदमस्ति क्षमते
क्षमते क्षमेते क्षमन्ते क्षमसे क्षमेथे क्षमध्वे क्षमे क्षमावहे क्षमामहे
समीचीनम् अनन्तरं अस्तु प्रिया भगिनि
त्वरते त्वरते त्वरेते त्वरन्ते त्वरसे त्वरेथे त्वरध्वे त्वरे त्वरावहे त्वरामहे
समीचीनं भगिनि अस्तु इदानीं लक्ष्मीभगिन्याः पर्यायः
परिवर्तते परिवर्तते परिवर्धेते परिवर्तन्ते परिवर्तसे परिवर्धेते परिवर्त्वे 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 भगिनि परिवर्धे परिवर्तावहे परिवर्तामहे
समीचीनम् अस्तु इदानीं नागेन्द्र महोदय भवतः पर्यायः चित्रयति
चित्रयति चित्रयतः चित्रयन्ति चित्रयसि चित्रयथः चित्रयथ चित्रयामि चित्रयावः चित्रयामः
समीचीनम् अनन्तरं संस्रते चित्रा भगिनी
संस्रते
भगिनी दट् इस् नाट् संस्रते दट् इस् स्रंसते
हा स्रंसते स्रंसते स्रंसेते स्रंसन्ते स्रंससे स्रंसे स्रंसेथे स्रंसध्वे स्रंसे स्रंसावहे स्रंसामहे Is that right?
Yes, samichinam. Asta, anantaram. Okay, lokate. Priya bhagini?
Lokate, lokete, lokante. Lokase, lokete, lokadve. लोकस्य लोके लोकावहे लोकामहे
समीचीनम् अस्तु इदानीं दत्ते
दिस् इस् स्पेशल् वन् न
आं लक्ष्मी भगिनि
दत्ते नॉट श्योर अबाउट दैट
अस्तु आम् अन्यक्रियापदं करोतु परन्तु
ददाति दत्तः न
दत्ते इत्यस्य रूपाणि दत्ते ददाते ददते दत्से ददाथे दध्वे ददे दध्वहे दध्महे दत्से एकनिमिष अहं लिखामि
Thank you.
क्रियापदानि एवं भवन्ति. अस्तु, इदानीं भवत्याः क्रियापदमस्ति प्रतिष्ठते.
प्रतिष्ठते, प्रतिष्ठेते, प्रतिष्ठन्ते, प्रतिष्ठते, प्रतिष्ठेते, प्रतिष्ठते, प्रतिष्ठे, प्रतिष्ठा, प्रतिष्ठाव, प्रतिष्ठावहे, प्रतिष्ठामहे.
अस्तु, यजति नागेन्द्रं महोदय.
यजति यजतः, यजन्ति यजसि यजतः, यजतः यजामि, यजावः यजामः.
समीचीनं महोदय. अस्तु, इदानीं चित्रा भगिनी. अस्तु, निन्दति इति अस्ति, सः निन्दति इति उपयोगं करोतु. उदाहरणं ददामि, सः निन्दति, तौ निन्दतः, ते निन्दन्ति, त्वं निन्दसि, एवं करोतु. अस्तु, कर्तृपदम् अपि वदतु.
सः, तौ, ते, त्वं,
सः, तौ, ते, त्वं, यूयं,
अहम्, आवां, वयं न, अहम्, आवां, वयं, सः निन्दति, सा निन्दतः, ते निन्दन्ति, त्वां निन्दसि, निन्दसि, युवां निन्दतः, यूयं निन्दथ, अहं निन्दामि, आवां निन्दामः, अहम्, आवां, वयं निन्दावः.
निन्दामः भगिनि, वयम्,
अहम्, आवां, वयं, सि, सः, स, आमि, आवः, अनामः, निन्दावः, निन्दामः.
समीचीनम्. अस्तु, इदानीं प्रिया भगिनी प्रार्थयते. सः प्रार्थयते.
सः प्रार्थयते, तौ प्रार्थयेते, ते प्रार्थयन्ते, त्वं प्रार्थयसे, यूयं प्रार्थयेते, युवां प्रार्थयते, यूयं प्रार्थयद्वे, अहं प्रार्थये, आवां प्रार्थय, प्रार्थयावहे, वयं प्रार्थयामहे.
समीचीनम्. अस्तु, इदानीं लक्ष्मी भगिनी सहते. सः सहते.
सहते, सौ, सहं, सहे, सहे, सहेते, ते, सहन्ते, त्वं, सह, ते, युवां, सहेते, यूयं, सहद्वे, अहं, सहे, आवां, सहावहे, वयं, सह.
समीचीनम्. नागेन्द्रन् महोदय.
सः मृगयति, तौ मृगयेति, ते मृगय, मृगयन्ते, त्वं मृगयसि, युवां मृगयेथे, यूयं मृगयन्त्वे, अहं मृगये, आवां मृगयावहे, वयं मृगयामहे.
उत्तमप्रश्नमस्ति, मृगे और मृगये.
मृगये
अस्तु. अत्र प्रश्नाः सन्ति वा? अस्तु, इदानीं वयं
गृहपाठं सा विल् बि द सेम्.
आम्, एतस्य करपत्रस्य सर्वाणि रूपाणि. अस्तु, सर्वे कण्ठस्थीकरणं कृतवन्तः वा?
भगिनि.
अस्तु, दशक्रियापदानां लट्लकारस्य अपि लोट्लकारस्य रूपाणि दृष्ट्वा लिखितवन्तः वा? न लिखितवन्तः चेत् वयं आं वर्गे कुर्मः.
न भगिनि, ऐ जस्ट् फिगर्ड् औट् दट् दट् लिङ्क् इस् आन् द टाप् अण्ड् नाट् आन् द टेबल्.
ओ अस्तु अस्तु, चिन्ता मास्तु. तत् नूतनः तत्र अस्ति किल. अस्तु, तत्र गृहपाठाभ्यासः इति भवति, तत्र भवन्तः गच्छन्ति चेत् तत्र गृहपाठः अस्ति. अस्तु अस्तु, वयम् अद्य वर्गे वयं कुर्मः. अस्तु, इदानीं कति क्रियापदाः सन्ति अत्र? जानातु, क्रीणातु, गृह्णातु, करोतु, शक्नोतु, शृणोतु, ददातु, रोदितु इति. अस्तु, इदानीं तत्र विशेषक्रियापदानि सन्ति. अस्तु, एतत् कण्ठस्थीकरणं कुर्वन्तः चेत् तत्र सुलभः भवति. अस्तु अस्तु, इदानीं जानातु, जानातु इत्यस्य रूपाणि कः पठति? अस्तु,
जानातु, जानीतां, जानन्तु, जानीहि, जानीतं, जानीत, जानानि, जानाव, जानाम.
समीचीनम्. अनन्तरं सर्वे एकवारं पठन्तु तत्र. इदानीं प्रिया भगिनी भवती एकवारं पठतु.
जानातु, जानीतां, जानन्तु, जानीहि, जानीतं, जानीथ, जानानि, जानाव, जानाम.
समीचीनं. लक्ष्मी भगिनी भवती अपि एकवारं पठतु.
जानातु, नीतां, जानन्तु, जानीहि, जानीतं, जानीत, जानानि, जानाव, जानाम.
समीचीनं. नागेन्द्रमहोदय भवान् एकवारं पठतु.
सा जानातु, ते जानीतं, ताः जानन्तु, त्वं जानीहि, युवां जानीतं, यूयं जानीत, अहं जानामि, आवां जानाव, वयं जानामः.
समीचीनं महोदय, बहु समीचीनम्. अस्तु, इदानीं क्रीडातु, क्रीणातु इत्यस्य रूपाणि. अस्तु, इदानीं लक्ष्मीभगिनी भवती पठतु एकवारं.
क्रीणातु, क्रीणीतां, क्रीणन्तु, क्रीणीहि, क्रीणीतं, क्रीणीत, क्रीणानि, क्रीणाव, क्रीणाम.
समीचीनं. नागेन्द्रमहोदय भवान् पठतु.
क्रीणातु, क्रीणीतां, क्रीणन्तु, क्रीणीहि, क्रीणीतं, क्रीणीत, क्रीणानि, क्रीणाव, क्रीणाम.
समीचीनम्. अनन्तरं चित्रा भगिनी.
क्रीणातु, क्रीणीतां, क्रीणन्तु, क्रीणीहि, क्रीणीतं, क्रीणीत, क्रीणानि, क्रीणाव, क्रीणाम.
समीचीनम्. अस्तु, इदानीं प्रिया भगिनी भवती एकवारं पठतु.
क्रीणातु, क्रीणीतां, क्रीणन्तु, क्रीणीहि, क्रीणीतं, क्रीणीत, क्रीणानि, क्रीणाव क्रीणाम
समीचीनम् अनन्तरं गृह्णाति क्रियापदस्य अस्तु इदानीं प्रियाभगिनी न चित्रभगिनी भवती पठतु
गृह्णातु गृह्णीतां गृह्णन्तु गृह्णान् गृह्णीतं गृह्णीत गृह्णानि गृह्णावः गृह्णामः
So, Bhagini, the Madhyam Purush is changing compared to the other ones, correct? Because if you go above, it is Niha, he, and this one is, and the Graha is...
You shouldn't compare them, Bhagini.
No? It's trying to get a pattern, but it doesn't look like.
No.
How do we remember this, Bhagini? We just have to memorize?
Memorize it, yes.
Just these eight.
Oh, okay. Just eight. Okay.
So, etani ashtam vishesha kriya padani kantastika karanam kurvantu api kamayate tasya api kantastikaranam kurvantu. Idani प्रिया भगिनी भवती पठतु
गृह्णातु गृह्णीतां गृह्णन्तु गृह्णान् गृह्णीतं गृह्णीत गृह्णानि गृह्णाव गृह्णाम
समीचीनम् अस्तु इदानीं नागेन्द्रमध्ये भवान् पठतु
गृह्णातु गृह्णीतां गृह्णन्तु गृह्णान् गृह्णीतं गृह्णीत गृह्णानि गृह्णाव गृह्णाम
ऐ रत्तट गृह्णान् मध्यमपुरुष एकवचनं
गृह्णान्
गृह्णान्
ओके
अस्तु इदानीं कः न पठितवान् अथवा पठितवती
अहं
अस्तु लक्ष्मी भगिनी
गृह्णातु गृह्णीतां गृह्णन्तु गृह्णान् गृह्णीत गृह्णीत गृह्णानि गृह्णाव गृह्णाव
समीचीनम् इदानीं अन्य कोऽपि न पठितवती वा अस्तु इदानीं करोतु अस्तु चित्रभगिनी भवती पठतु
करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत कर्वाणि कर्वाव कर्वाम
समीचीनं भगिनि अस्तु इदानीं प्रिया भगिनी भवती पठतु
करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम
अस्तु समीचीनम् अनन्तरं लक्ष्मी भगिनी
करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम
समीचीनम् अनन्तरं नागेन्द्रमहोदय
बालकः करोतु बालकौ कुरुतां बालकाः कुर्वन्तु त्वं कुरु युवां कुरुतं यूयं कुरुत अहं करवाणि आवां कर्वाव वयं कर्वाम
समीचीनं महोदय अस्तु इदानीं शक्नोतु चित्रभगिनी भवती पठतु
शक्नोतु, शक्नुताम्, शक्नुवन्तु, शक्नुहि, शक्नुतं, शक्नुत, शक्नवानि, शक्नवाव, शक्नवाम.
समीचीनम्. अस्तु, नागेन्द्रमहोदय भवान् पठतु.
शक्नोतु, शक्नुतां, शक्नुवन्तु, शक्नुहि, शक्नुतं, शक्नुत, शक्नवानि, शक्नवाव, शक्नवाम.
समीचीनम्. अस्तु, इदानीं प्रिया भगिनी.
शक्नोतु, शक्नुतां, शक्नुवन्तु, शक्नुहि, शक्नुतं, शक्नुत, शक्नवाणि, शक्नवाव, शक्नवाम. What does that 5P mean, Bhagini? Shaktato 5P.
Anantaram Pashyamaha. Tatra Vadami. Astu. Idani. Lakshmi Bhagini.
Shaknotu, Shaknutam, Shaknuvantu. Shaknuhi, Shaknutam, Shaknuta. Shakvani, Shakvava.
समीचीनम्. अस्तु, इदानीं शृणोतु इत्यस्य चित्रा भगिनी भवती वदतु.
शृणोतु, शृणुतां, शृण्वन्तु, शृणु, शृणुतं, शृणुत, शृणवानि, शृणवाव, शृणवाम.
समीचीनम्. अस्तु, इदानीं नागेन्द्रमहोदय.
शृणोतु, शृणुतु, सोरि, शृणोतु, शृणुतां, शृण्वन्तु, शृणु, शृणुतं, शृणुत, शृणवानि, शृणवाव, शृणवाम.
समीचीनम्. अस्तु, अनन्तरं लक्ष्मी भगिनी.
शृणोतु, शृणुतां, शृण्वन्तु, शृणु, शृणुतं, शृणुत, शृणवानि, शृणवाव, शृणवाम.
समीचीनम्. अनन्तरं प्रिया भगिनी.
शृणोतु, शृणुतां, शृण्वन्तु, शृणु, शृणुतं, शृणुत, शृण्वानि, शृणवाव, शृणवाम.
समीचीनम्. अनन्तरं दादातुः चित्रभगिनी भवती पठतु.
ददातु, दत्तां, ददतु, देहि, दत्तं, दत्त, ददानि, ददाव, ददाम.
समीचीनम्. इदानीं लक्ष्मी भगिनी.
ददातु, दत्तां, ददतु, देहि, दत्तं, दत्त, ददानि, ददाव, ददाम.
समीचीनम्. इदानीं प्रिया भगिनी.
ददातु, दत्तां, ददतु, देहि, दत्तं, दत्त, ददानि, ददाव, ददाम.
समीचीनम्. अस्तु, इदानीं नागेन्द्रमहोदय.
ददातु, दत्तां, ददतु, देहि, दत्तं, दत्त, ददानि, ददाव, ददाम.
Bhagini,
this is all lot lakar for dadatu, correct? And we had learned datte for the
atmanepati.
Atmanepati. But the meaning is same, but just the form is changing.
Ubhayapadi dhatuh asti, dadatuh.
Okay.
Antaram. सर्वे पठितवन्तः इति चिन्तयामि. रोदितु रोदितु चित्रा भगिनी भवती प्रथमतया पठतु.
रोदितु रुदितां रुदन्तु रुदिः रुदितं रुदित रोदानि रोदाव रोदाम.
समीचीनम् अस्तु. अनन्तरं लक्ष्मी भगिनी.
रोदितु रोदितां रुदन्तु रोदिः रोदितं
रुदिः
रुदितं रुदित रोदि रोदा रोदा वा रोदाम.
समीचीनम् अस्तु. इदानीं लक्ष्मी प्रिया भगिनी.
रोदितु रोदितां रुदन्तु रुदिः रुदितं रुदित रोदानि रोदाव रोदाम.
समीचीनम् इदानीं
your voice is very feeble suddenly bagini
idani
ha namaskar
as idani nagendra mohdya bhavan patto
I'll just change some form. Saha roditu tvam rodihi aham rodani tau roditam yuvam roditam avam rodava te rudantu yam rodita वयं रोदाम.
समीचीनम् अस्तु. अत्र प्रश्नाः सन्ति वा?
न.
अस्तु. एतत् प्रथमः
भगिनी दट् लिङ्क् इस् अवेलेबल् फार् अस् टु मेमरैस्.
आम् तत्र परिसन्धिः इति दत्तमस्ति तत्र अस्ति. अस्तु. अनन्तरम् एतानां प्रथमानां दशक्रियापदानां लट् लकारस्य अपि लोट् लकारस्य रूपाणि दृष्ट्वा lika.com दृष्ट्वा लिखन्तु. अस्तु अस्तु. प्रथमः दशक्रियापदानि. अस्तु. प्रथमः गच्छति. तत्र लोट् लकारः प्रथमपुरुषः दत्तमस्ति. अस्तु. वयम् अत्र कुर्मः गच्छति. अस्तु. इदानीं चित्रा भगिनी भवती लोट् लकारस्य रूपाणि वदतु. गच्छति गच्छतः गच्छन्ति
गच्छति गच्छतः गच्छत गच्छामि गच्छाव गच्छाम.
अस्तु. इदानीं लोट् लकारः
लोट् लकार लट् लकार.
आम् आम् वयं लट् लकारस्य अपि लोट् लकारस्य अभ्यासं सर्वे लट् लकारस्य रूपाणि स्मरन्ति वा न वा? लोट् लकारस्य लक्ष्मीभगिनी भवती स्मरति वा?
गच्छतु गच्छतु गच्छन्तु
वयं सर्वे एकवारं पुनः पठामः लोट् लकारस्य रूपाणि. अनन्तरं वयम् अभ्यासं कुर्मः. अस्तु. गीतासोपाने अत्र पेज् पुटसङ्ख्या 50 मध्ये गच्छन्तु. वयम् एतत् सम्भाषणं पठितवन्तः किन्तु स्मरणार्थं पुनः पठित्वा वयं गच्छामः. अस्तु. अत्र कः स्मरति तत्र उत्तिष्ठो यशो लभस्व इत्युक्ते किम्? तत्र अत्र क्रियापदानि अहं पुस्तके दत्तं सम्भाषणे यानि क्रियापदानि लोट्लकारे सन्ति तेषां लट्लकारस्य क्रियापदं किम् इति अहम् अत्र लिखितवती. अस्तु, इदानीं नागेन्द्रमहोदय पुत्रः अस्ति, प्रिया भगिनी पिता भवति. अस्तु, आरम्भं करोतु.
वत्स, अत्र आगच्छत्.
किम्?
गीतापुस्तकम् आनय.
अस्तु.
अत्र उपविश. प्रथमं कृष्णं स्मर. प्रार्थनां कुरु. ध्यानश्लोकं पठ. ध्यानश्लोकं पठ. उच्चैः वद.
कं श्लोकं पठानि?
प्रथमं श्लोकं पठ.
भवान् कृपया एतस्य अर्थं विवृणोतु. विवृणोतु.
विवृणोमि. श्रद्धया शृणु. अत्र पश्य.
कुत्र पश्यानि?
पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व.
अग्रे किं करवाणि?
एतं श्लोकं पञ्चवारं पठ.
भवान् कृपया पाठयतु, अनन्तरम् अहं प्रयतै.
तथैव कुरुष्व. आरभावहै. तथैव कुरुष आरभावहै.
अत्र अत्र वत्स, अत्र आगच्छ इत्युक्ते किम्?
कम् हियर्.
अत्र किं भवति सम्बोधनं? पुत्रः किं वदति?
किं
किं
वै
वाट्
वै गीतापुस्तकम् आनय. ब्रिङ्ग् गीतापुस्तकं.
ब्रिङ्ग् द गीतापुस्तकं.
पुत्र अस्तु. इस् ओके.
अस्तु ओके. अत्र उपविश.
सिट् देयर. सिट् हियर. सिट् हियर.
अत्र उपविश. तत् पिता पुत्रं वदति अत्र उपविश. प्रथमं कृष्णं स्मर. कृष्णं स्मरतु. प्रार्थनां कुरु. प्रार्थनां वद अथवा करोतु. ध्यानश्लोकं पठ. पुत्रमध्ये भवान् ध्यानश्लोकं पठतु. उच्चैः वद. उच्चैः वदतु. कं श्लोकं पठानि? अहं किं श्लोकं पठनीयं? प्रथमं श्लोकं पठ. प्रथमं श्लोकं पठतु. भवान् कृपया एतस्य अर्थं विवृणोतु. भवान् कृपया एतस्य श्लोकस्य अर्थं वदतु. विवृणोमि. वदामि. श्रद्धया शृणु. सावधानतया शृणु. अत्र पश्य. अत्र पश्यतु. कुत्र पश्यानि? कुत्र पश्यनि? पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व. पुस्तकस्य अष्टमं पृष्ठस्य भागे गच्छतु. अग्रे किं करवाणि? अग्रे किं करणीयम्? एतं श्लोकं पञ्चवारं पठ. एतं श्लोकं पञ्चवारं पठतु, भवान् कृपया मां पाठयतु, अनन्तरम् अहं प्रयत्नं करोमि. तदेव वयं
कुर्मः
आरभावहे आरम्भं कुर्मः. अस्तु अस्तु, अत्र प्रश्नाः सन्ति वा एतत् सम्भाषणस्य? अस्तु, न सन्ति चेत् वयं एकवारं लोट् लकारस्य रूपाणि पश्यामः. अस्तु, प्रथमतया वयं परस्मैपदी लट् लकारे एकवारं दृष्ट्वा वयं लोट् लकारं गच्छामः. अस्तु, अत्र सर्वे लट् लकारे आत्मनेपदी अपि परस्मैपदी क्रियापदानां रूपं जानन्ति.
भगिनि, वन् क्वश्चन् भगिनि.
आम्.
So we are saying that we can interchangeably use it, Bhagini, like Vada, Vadatu, Pashya, Pashyatu.
No, no, no. Just to explain, I am just giving that.
Bhagini, okay. Some of them are Tvam and now it's become Saha.
Okay. Okay, Bhagini.
Just to make it easier to understand, the artha, that's why it kind of changed the meaning almost.
Okay.
So
okay.
You cannot interchangeably use them.
Okay. Okay. So you are changing the pronoun for us to understand. Okay. Okay.
To be really easier. Astra.
Okay.
Idanim patati ityasya rupani latlakare jananti. Patati, patadaha, patanti, patasi, patataha, patata, patami, patavaha, patam. वयं लट्लकारे आत्मनेपदिक्रियापदानाम् अपि वयं पठितवन्तः. वन्दते, वन्देते, वन्दते, वन्दसे, वन्देथे, वन्दते, वन्दे, वन्दावहे, वन्दामहे. अस्तु, इदानीं लोट् लकारस्य पश्यामः. आज्ञा लोट् प्रेरणा इति. पठतु, पठतां, पठन्तु, पठ, पठतं, पठत, पठामि, पठाव, पठाम. अस्तु, अस्तु, इदानीं गच्छति इति अस्ति चेत् किं भवति?
गच्छतु, गच्छतां, गच्छतु, गच्छ, गच्छतां, गच्छत्, गच्छानि, गच्छाव, गच्छामः.
गच्छतु, गच्छतां, गच्छन्तु, गच्छ, गच्छतां, गच्छत, गच्छानि, गच्छाव,
गच्छामः.
आनयतु,
आनयतु,
आनयन्तु, आनय, आनयतम्, आनयत, आनयानि, आनयाव, आनयाम.
समीचीनम्. अनन्तरं स्मरतु,
स्मरतु, स्मरतां, स्मरन्तु, स्मर, स्मरतं, स्मरत, स्मराणि, स्मराव, स्मराम.
अत्र किञ्चित् अभ्यासं करणीयं चेत् एकनिमिषः.
So, Bhagini, this is the form for the Parasmaipadi. Is it different for Atmanaipadi?
Aam, aam.
Okay.
Vedaha bhavati. Tadapi vayam patamaha. Asha. Ekanamishaha. दृश्यते वा?
No.
अत्र केवलं पर्सनैपदे क्रियापदानि सन्ति, किञ्चित् अभ्यासं कर्तुं प्रयत्नं कुर्मः. तत्र विशेषक्रियापदानि सन्ति चेत् वयं न कुर्मः. अस्तु, एकनिमिष, विशेषक्रियापदानि अहं न लिखामि. अस्ति इति एकनिमिषः. अस्तु, विशेषक्रियापदानि भवन्तु. वयं गृहपाठे वयं पठितवन्तः एतद् लोट्लकारस्य एव. अस्तु, पश्यामः किमस्ति, शक्नोति. अस्तु, प्रथमे वयं शक्नोति न कुर्मः. करोति न करोति, अहं विशेषक्रियापदे न इच्छामि, तदेव आगच्छति. अस्तु, अस्तु, एकनिमिष. गर्जति, गर्जतु इति लोट्लकारस्य प्रथमपुरुषः एकवचनम्. अस्तु, इदानीं दृष्ट्वा, एतत् दृष्ट्वा लोट्लकारस्य रूपाणि किं भवन्ति? नागेन्द्र महोदय,
गर्जतु, गर्जतां, गर्जन्तु, गर्ज, गर्जतं, गर्जत, गर्जानि, गर्जाव, गर्जामि.
समीचीनम्. अनन्तरं कूजतु. अस्तु, इदानीं चित्रभगिन्याः पर्यायः.
कूर्जतु, कूर्जतां, कूर्जन्तु, कूर्ज, कूर्जतं, कूर्जत, कूर्जानि, कूर्जाव, कूर्जाम.
समीचीनम्.
There is no dr, correct, but there is just without dr. कूर्जतु,
कूर्जतु,
कूर्जतु.
Can you see the word again, Bhagin? Where is the r?
कूजन्तु, कूज, कूजतं, कूजत, कूजानि, कूजाव, कूजाम.
धन्यवादः नागेन्द्र महोदय, समीचीनं चित्र भगिनि. इदानीं लक्ष्मी भगिन्याः
पश्यतु, पश्यतां, पश्यन्तु, पश्य, पश्यतं, पश्यत, पश्यामि, पश्याव, पश्य, पश्य, पश्याम, पश्यामि, आर् पश्यामि भगिनि, पश्य, 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 पश्यानि, रैट्,
पश्यामि,
पश्यानि, पश्याम.
समीचीनम्. अनन्तरं सजति, प्रिया भगिनी.
सजतु, सजतां, सजन्तु, सज, सजतं, सजत, सजानि, सजाव, सजाम.
समीचीनम्. अनन्तरं नागेन्द्र महोदय.
पृच्छतु, पृच्छतां, पृच्छन्तु, पृच्छ, पृच्छतं, पृच्छत, पृच्छानि, पृच्छाव, पृच्छाम.
समीचीनम्. अस्तु, अनन्तरं चित्रा भगिनी, भवत्याः पर्यायः. गर्जति कृतवन्तः.
नमति, नमतु, नमतां, नमन्तु, नम, नमतं नमत नमामि नमाव नमाम
समीचीनम् अस्तु इदानीं लक्ष्मी भगिनी
भवति भवतु भवतां भवन्तु भव भवतं भवता भवानि भवा वा भवाम
समीचीनं भगिनि अस्तु इदानीं प्रिया भगिनी पृच्छतु कृतवन्तः किल
प्रेषयतु प्रेषयतु प्रेषयतां प्रेषयन्तु प्रेषय प्रेषयतं प्रेषयत प्रेषयानि प्रेषयाव प्रेषयाम
समीचीनम् अस्तु अनन्तरं उपविशति नागेन्द्र महोदय
सः उपविशतु तौ उपविशतां ते उपविशन्तु त्वम् उपविश युवाम् उपविशतं यूयम् उपविशत अहम् उपविशामि आवाम् उपविशाम उपविशाव वयम् उपविशाम
समीचीनम् अस्तु इदानीं चित्रभगिन्याः पर्यायः कूजति कृतवन्तः आम्
पीडयतु पीडयतां पीडयन्तु पीड पीडतं पीडत पीडानि पीडाव पीडाम
समीचीनम्
Bhagini, can I look at the word again, Bhagini?
Pidayati.
So, what will be the Madhyan Purusha, Bhagini?
Pidaya, Pidayatam.
Pidaya.
Pidaya.
Not Pida. Pidaya.
Pidaya.
Pidaya, Pidayatam, Pidayata.
Pidayata.
And then Uttam Purusha?
Pidayami.
Pidayani, Pidayava, Pidayama. So then I said it wrong.
Khadati, Lakshmi Bhagini.
Khadatu, Khadatam, Khadantu, Khada, Khadatam, Khadata, Khadani, Khadava, Khadama.
Samichinam.
Bhagini, is this a wrong word? Because it's not khadati, it is khadati.
Khadati, khadati iti.
Khadatu,
khadata. Na, bhagini, khadati eva.
The word is khadati.
Ekanamisha. Khadati. As, khadati.
Khadati.
Anantaram. वदति प्रिया भगिनी
वदतु वदतां वदन्तु वद वदतं वदत वदानि वदाम वदाव वदाम
समीचीनं भगिनी अनन्तरं नागेन्द्र महोदय
खनतु खनतां खनन्तु खन खनतं खनत् खनानि खनाव खनाम
समीचीनम् अस्तु इदानीं चित्रभगिन्याः पर्यायः पीडयति कृतवन्तः स्मरति
स्मरतु स्मरतां स्मरन्तु स्मर स्मरतं स्मरत स्मरामि स्मराव स्मराम
समीचीनम्. अस्तु, इदानीं खादति कृतवन्तः. सजति लक्ष्मी भगिनी.
सजति सजतु सजतां सज सज सजतं सजत सजामि सजाव सजाम.
समीचीनम्. अनन्तरं प्रिया भगिनी.
निद्राति निद्रातु निद्रातं निद्रातां निद्रन्तु निद्र निद्रतं निद्रत निद्राणि निद्राव निद्राम.
समीचीनम्. कर्जति कृतवन्तः किल?
कृतवन्तः.
प्रक्षालयति विद्यन्तु.
क्रीडति.
पुष्यतु
प्रिया भगिनी.
अहं कृतवती लास्ट् पर्याय.
अस्तु, नागेन्द्र महोदय.
क्रीडतु क्रीडतां क्रीडन्तु क्रीड क्रीडतं क्रीडत क्रीडानि क्रीडाव क्रीडाम.
समीचीनम्. कृतवन्तः किल?
नो, didn't do it.
अस्तु, चित्रा भगिनी.
निन्दतु निन्दतां निन्दन्तु निन्द निन्दतं निन्दत निन्दानि निन्दाव निन्दाम.
समीचीनम्. लक्ष्मी भगिनी कृतवन्तः वा? कृतवन्तः इति चिन्तयामि.
न भगिनि.
अस्तु,
आह्वयति आह्वयतु आह्वयताम् आह्वयतु आह्वय आह्वयतम् आह्वय आह्वयानि आह्वय आह्वय.
समीचीनं भगिनि. अस्तु, इदानीं न कृतवन्तः किल? अस्तु, प्रिया भगिनि.
स्थापयतु स्थापयतां स्थापयन्तु स्थापय स्थापयतं स्थापयत स्थापयानि स्थापयाव स्थापयाम.
अस्तु, समीचीनं. भवन्तः सर्वे पुस्तकं दृष्ट्वा न वदन्ति किल? पुस्तकं दृष्ट्वा वदन्ति वा? अस्तु,
ऐ एम् ट्रैङ्ग् टु नाट् सी बट् ऐ एम् गेटिङ्ग् स्टक् हियर् एण्ड्
देयर्. किञ्चित् प्रयत्नं कुर्वन्ति चेत् समीचीनम्. अस्तु, अत्र वयं परस्मैपदक्रियापदानाम् अत्र वयं स्थगयामः. इदानीम् आत्मनेपदे क्रियापदानां विषये पश्यामः. इदानीं वन्दतां वन्देतां वन्दन्तां वन्दस्व वन्देथां वन्दध्वं வந்தை வந்தாவகை வந்தாமகை
வந்ததே வந்ததே வந்ததம்
அஸ்து அத்ர கிஞ்சித் கிஞ்சித் பஷ்யந்தி சேத் அத்ர வந்தாவஹே வந்தாமஹே இத்தி அஸ்தி தத்ர வந்தாவஹை வந்தாமஹே ஏவ
வந்தை வந்தாவஹை வந்தாமஹே
அத்ர வந்ததே வந்ததுவே இத்தி ஆசீத் அத்ர வந்தே தாம் அபி வந்தத்வம் அத்ர வந்தே இத்தி அஸ்தி அத்ர வந்தை இத்தி அஸ்தி வந்ததாம் வந்தந்தாம் சமீச்சினம் அஸ்து இதானிம் கிஞ்சித் அப்பியாசம் குருமா காமயதே இது அஸ்தி ரோட்ல காரிய கிம் பவதி
காமயதாம் காமயதாம் காமயந்தம் காமஸ்ய காமேதாம் காமத்வம் காமை காமாவஹே வஹை காமாமஹை
அஸ்து காமயதாம் காமயேதாம் காமயந்தாம் காமயஸ்வ காமயேதாம் காமயத்வம் காமயை காமயாவஹை காமயாமஹை அத்தனை ரூபானாம் சுலபத்தையா பட்டனீயம் சேத் தத்தனை கீதா சோபானே புட்ட சங்கியா கிம் அத்தர புட்ட சங்கியா கிம் பதி 52 மத்தியே தத்தர தத்தர பரஸ்மை பதி கிரியாபதானாம் சர்வாணி ரூபானி சுலபத்தையா தத்தம் அஸ்தி அஸ்து தத்தர அபியாசம் அப்படி அஸ்தி எதாவது பவந்தா கிரகபாட்டரூபேண குர்வந்தோ அஹம் கிரகபாட்டம் ததாமி அப்படி பூட்டசங்கியா 55 கச்சந்தி சேத் தத்த ஆத்மநேபதி அஸ்தி அஸ்து அத்த வயம் ஆத்மநேபதி வயம் மார்க்கே குர்மஹ அனந்தரம் அஹம் கிஞ்சித் தத்ர கீதா சோபானி ஏவ தத்ர அபியாசாஹ சந்தி அஹம் ததாமி அஸ்து அபி பரஸ்மைபதி அபி ஆத்மநேபதி தஸ்ய ரூபானி கண்டஸ்தே கர்ணார்த்தம் ஸ்மரந்து அஹம் லிஸ்ட் ஆஃப் கிரியாபதானி அஹம் பிரேஷித்தவதி கதவர்க்கு வயம் கிம் கிருதவந்த தஸ்ய சுலபத்யா கிம் அஸ்தி கிரியாபதம் இதி பஷ்யந்து தத் குர்வந்து அபி அஷ்டாத்யாயி மத்தி .com மத்தி பஷ்யந்து தத் ரூபானி சம்யக் சந்தி வா அஹம் கிம் வதாமி அபி கிம் தத்தம் அஸ்தி இதி அஸ்து அப்படி பவந்தா ஆத்மநேபதி அத்தவா பரஸ்மைபதி குருவந்தா சேத் தத்ர பரஸ்மைபதி தாத்துனாம் சுலபதியா கச்சதி பிருச்சதி வததி நயதி உபவிஷதி ஆகச்சதி இதி குருவந்து அத்த ஸ்மயதே காமயதே தாதிருஷானி கிரியாபதானம் உபயோகம் கரோத்து தத்ர ஆத்மநேபதி தத்தனம் ந ஜானந்தி சேத் தத்ர பாத்ரமேலனம் இத்தியஸ்ய அபி தத்ர கத்வா பவந்தஹ பஷ்யந்து அஸ்து அஸ்து இதானிம் இதத் அப்யாசம் வயம் குர்மஹ இதானிம் Thank you. कः प्रथमतया पठति?
वन्दतां वन्दे तां वन्दन्तां वन्दस्व वन्देथां वन्दध्वं वन्दै वन्दावहै वन्दामहै.
समीचीनम्. इदानीं शोभते इत्यस्य प्रथमपुरुषः लट् लकारः अपि लोट् लकारः. लक्ष्मी भगिनी भवती पठतु.
शोभतां शोभेतां शोभन्तां शोभ शोभ शोभत्व शोभस्व शोभ शोभेतां शोभत्वं शोभये शोभावहे शोभामहे.
समीचीनम्. अस्तु, इदानीं प्रिया भगिनी रमति इत्यस्य लट् अपि लोट् लकारः.
रमति भगिनी, रमति रमतः
रमते रमते
ओ रमते रमते आत्मनेपदि रमते रमेते रमन्ते रमसे रमेते रमध्वे रमे रमावहे रमां महे. इति लट्लकारः. लोट्लकारः रमतां रमेतां रमतां रमेतां रमतन्तां भगिनि रमन्तां रमत्स्वे रमत्स्व रमतां रमयेतां रमदत्वं
रमध्वं
रमध्वम् ओके रमध्वं रमध्वं रमधै रमधावहे रमदामहै.
समीचीनम्. अत्र प्रथमपुरुषस्य अस्ति प्रथमपुरुषः लट्लकारस्य अस्ति रमते रमेते रमन्ते रमसे रमेथे रमध्वे रमे रमावहे रमामहे. तत्र लोट्लकारस्य रूपाणि सन्ति रमेता रमतां रमेतां रमन्तां रमस्व रमथां रमध्वं रमै रमावहै रमामहै. अस्तु, इदानीं कः अस्तु अयते इति दत्तमस्ति. नागेन्द्रमहोदय
लट्लकार अयते अयेते अयन्ते अयसे अयेथे अयेत्थ अयध्वे अयते अयेते अयन्ते अयसे अयेथे अयध्वे अये अयवावहे अयवामहे.
अयावहे और अयमावहे
पुनः वदतु. उत्तमपुरुषः
अये अये अयवावहे
अयवा इति कुत्र आगच्छति?
अयावहे अयामहे.
समीचीनम्.
अये अयावहे अयामहे.
इदानीं लोट् लकारे
अयतु अय नो सारि ऐ नीड् टु गो अप् अयताम् अयेताम् अयन्ताम् अयस्व अयेथाम् अयध्वम् अयै अयवहे अयमहे अयै अयावहे अयामहे
अस्तु समीचीनम् अनन्तरं स्मयते चित्रा भगिनि
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे स्मयध्वे स्मये स्मयावहे स्मयावहे स्मयतां स्मयतां स्मयेतां स्मयन्तां स्मयस्व स्मयेथां स्मयध्वं स्मयै स्मयावहै स्मयावमहै
समीचीनम् अनन्तरं द्योतसे द्योतते एतत् भवन्तः अवगतवन्तः वा कथं करणीयम् इति तत्र अत्र एतत् अभ्यासं वयं भवन्तः गृहपाठरूपेण पूर्णतया कुर्वन्तः अस्तु अत्र केवलं तत्र सहते इति अस्ति चेत् सर्वाणि रूपाणि अभ्यासं कुर्वन्तु अस्तु इदानीं वयम् अत्र अभ्यासं न कुर्मः एकनिमिष अस्तु अहं क्रियापदं वदामि भवन्तः तस्य लोट्लकारस्य रूपाणि वदन्तु अस्तु प्रथमतया रमते लक्ष्मी भगिनी
रमते
न रमते रमते
रमते लोट्लकार लट्लकार रमते
लोट्लकार लोट्लकार
रमेतां रमन्तां रमस्व रमेतां रमध्वं रमै रमावहै रमावहै
समीचीनम् अनन्तरं अनुवर्तते प्रिया भगिनी
अनुवर्तते अनुवर्ततां अनुवर्तेताम् अनुवर्तन्ताम् अनुवर्तत्व अनुवर्तेताम् अनुवर्तत्वम् अनुवर्तै अनुवर्तावहै अनुवर्तामहै
सेवते
Can I say? सेवतां सेवेतां सेवन्तां सेवस्व सेवेथां सेवध्वं सेवै सेवावहै सेवामहै
समीचीनम् इदानीं मोदते नागेन्द्रमहोदय
मोदते मोदतां मोदेतां मोदन्तां मोदस्व मोदेथां मोदध्वं मोदै मोदावहे मोदामहे.
समीचीनम्. अनन्तरं शोभते चित्रा भगिनी.
शोभतां शोभेतां शोभन्तां शोभस्व शोभेतां शोभध्वं शोभै शोभावहै शोभामहै.
अनन्तरं लक्ष्मी भगिनी लोकते
लोकते लोकतां लोकेतां लोकन्तां लोकस्व लोकेतां लोकत्वं लोकै लोकावहै लोकामहै.
समीचीनम्. अनन्तरं प्रार्थयते प्रिया भगिनी.
प्रार्थयतां प्रार्थयेतां प्रार्थयन्तां प्रार्थयस्व प्रार्थयेतां प्रार्थयध्व प्रार्थयै प्रार्थयावहै प्रार्थयामहै.
समीचीनम्.
उत्तम सारी उत्तम मध्यम पुरुषं बहुवचनं प्रिया भगिनी.
प्रार्थयत्
इदानीं निरीक्षते नागेन्द्रमहोदय.
निरीक्षते निरीक्षतां निरीक्षेतां निरीक्षन्तां निरीक्षस्व निरीक्षेतां निरीक्षध्वं निरीक्षै निरीक्षावहै निरीक्षामहे.
समीचीनम्. अनन्तरं विराजते इति
विराजते
चित्रा भगिनी.
विराजतां विराजेतां विराजन्तां विराजस्व विराजेतां विराजध्वं विराजै विरजावहै विरजामहै.
समीचीनम्. इदानीं त्रायते लक्ष्मी भगिनी.
त्रायतां त्रायेतां त्रायं त्राय त्रायेतां त्रायध्वं त्रायै त्रायावहै त्रायामहै.
समीचीनम्. अस्तु. अनन्तरं प्रिया भगिनी. किं क्रियापदम् परिवर्धते
परिवर्धते परिवर्धतां परिवर्धेतां परिवर्तन्तां परिवर्तस्व परिवर्धेतां परिवर्धत्वं परिवर्धै परिवर्धावहै परिवर्धामहै.
समीचीनम्. अनन्तरं स्पर्धते नागेन्द्रमहोदय.
स्पर्धते स्पर्धतां स्पर्धेतां स्पर्धन्तां स्पर्धस्व स्पर्धितां स्पर्धत्वं स्पर्धै स्पर्धावहै स्पर्धामहे.
समीचीनम्. अत्र प्रश्नाः सन्ति वा? अहं परस्मैपदी अपि आत्मनेपदी तस्य लोट्लकारस्य अभ्यासनिकेतसोपा पुस्तके सन्ति, तत्र अहं कति अभ्यासानि कुर्वन्तु इति अहं ददामि. तत्र अपि विशेषक्रियापदानि अहं तत्र दत्तवती, तत् भवन्तः कण्ठस्थीकरणं कुर्वन्तु. अहम् अद्य एव ध्वनिमुद्रणमपि गृहपाठम् अद्य अथवा श्वः प्रेषयामि. अस्तु. अहं शान्तिमन्त्रं वदामः एकनिमिषः पश्यति वा?
न, स्क्रीन् पठन् नास्ति.
चित्रा भगिनी इति चिन्तयामि.
ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्.
समीचीनं. धन्यवादः भगिनी. नमस्कारः.